ॐ नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः गुणं त्रयविभागयोगम्। श्रीभगवानुवाच, परं भूय प्रवक्ष्यामि ज्ञानानं ज्ञानमुत्तमं यज्ञं त्वा मुनयः सर्वे परं सिद्धिमितो गतः। इदं ज्ञानं उपासित्य मम सा धर्ममागता, सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च। मम यो निर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहं, संभव सर्वभूतानां ततो भवति भारतं। सर्वयोनिषु कौन्तेयं मूर्तय संभवन्ति च, तासं ब्रह्म महद्योनिम् अहं बीजप्रदः पिता। सप्तं रजस्तम इति गुणा प्रकृति संभवा, निवद्नन्ति महाबाहो देहे देहि नमाव्ययं। तत्र सत्त्वं निर्मलत्वात् प्रकाशकङ्गनामयं, सुखसङ्गेन भत्नाति ज्ञानसङ्गेन जानघं। रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवं, तन्निबध्नाति कौन्तेया कर्मसङ्गेन देहिनं। तमस्तज्ञानजं विद्धि मोहनं सर्वदेहिनां, प्रमादालश्च निद्राभि तन्निबध्नाति भारतं। सत्त्वं सुखे सञ्जयति रजकर्मणि भारत, ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युदं। रजस्तमस्याभिभूय सत्तं भवति भारत, रजसत्तं तमश्चैव तमसत्तं रजस्तथा। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते, ज्ञानं यदा तदा विद्यात् विवृधं सत्त्वमित्युदं। लोभो प्रवृत्तिरारम्भं कर्मणामसमस्पृहा, रजसेतानि जायन्ते विवृद्धे वरदर्शभ। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च, तमसेतानि जायन्ते विवृद्धे कुरु नन्दन। यदा सत्त्वे प्रवृद्धे तु प्रलयं जाति देहभृत्, तदुत्तमविदान् लोकान् अमलन् प्रतिपद्यते। राजसि प्रलयं गत्वा कर्मसङ्गीषु जायते, तथा प्रलीनस्तमसि मूढयोनिषु जायते। कर्मणः सुकृतस्याहु सत्त्विकं निर्मलं फलं, रजसस्तु फलं दुःखं अज्ञानं तमसा फलं। सत्त्वात् सञ्जायते ज्ञानं रजसो लोभो एव च, प्रमादमोहो तमसो भवतो ज्ञानमेव च। ऊर्ध्वं गच्छन्ति सत्त्वस्था मत्ते तिष्ठन्ति राजसा, जघन्नगुणभूतिस्था अधो गच्छन्ति तामसा। नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति, गुणेभ्यश्च परं वेत्ति मद्भावं शोधि गच्छति। गुणानेतानतीत्यत्रिन् देहि देह समुद्भवान्, जन्म मृत्यु जरा दुःखै विमुक्तो मृतमश्नुते। अर्जुन उवाच, कर्लिङ्गै त्रिन्गुणान् एतान् अतीतो भवति प्रभो, किमाचारः कथं चैतान् त्रिन्गुणान् अतिवर्तते। श्रीभगवानुवाच, प्रकाशं च प्रभृतिं च मोहमेव च पण्डव, न द्वेषी सम्प्रवृत्तानि न निवृत्तानि कङ्क्षति। उदासीनं पदासीनो गुणैर्यो न विचल्यते, गुणावर्तन्त इत्येवं युवतिष्ठति नङ्गते। समदुःखसुखस्वस्थं समलोष्ट्रास्मकञ्चनं स्तुल्य प्रिया प्रियोधीरा स्तुल्य निन्दात्म संस्तुति मानापमानयो स्तुल्यम् तुल्य मित्रारिपक्षयो सर्वारम्भ परित्यागी गुणातीतः स उच्यते मंचजो व्यभिचारेण भक्ति योगेन सेवते सगुणं समुत्थितैतान् ब्रह्म भूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहं अमृतस्यावयस्य च शश्वतैश्च धर्मैश्च सुखसैकान्तिकस्य च ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोग नाम चतुर्दशोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु शुभं भवतु शुभं भवतु शुभं भवतु।